एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः सर्वकारेण भारतस्य विभिन्नेभ्यः स्थानेभ्यः नेपाले आगमनस्य क्रमे नेपाल भारत सीमा क्षेत्रेषु अवरुद्धेभ्यः नेपालीभ्यः ह्य एकदिवसाय नेपाल प्रवेशाय अवसरः प्रदत्तः। कोरोना विषाणु निरोधन नियन्त्रणोच्चस्तरीय समन्वय समितेः गतदिवसीयो प्रवेशे सीमा क्षेत्रेषु अवरुद्धेभ्यो नेपालीभ्यः चतुर्दश दिनानि यावत् संसर्ग निषेधनवासे निवसनत्वेन ह्य अन्तिमवारम् एकदिवसाय नेपाली आगमनाय अनुमतिम् दातुम् निर्णीतम् इति सर्वकारस्य प्रवक्ता च अर्थ संचार सूचना प्रविधि मन्त्री डा युवराज खतिवडा अज्ञापयत। कतिपय स्वास्थ्योपकरणानां स्थानीयेषु आपणेषु आपूर्तेः अभावस्य अवस्थायाम् अन्तर्राष्ट्रियेभ्यः आपणेभ्यः शीघ्रम् आनयनात्मिकाम् आवश्यकताम् अनुभूय सर्वकारेण नैजक्षेत्रम् आनयनाय आह्वयितुम् निर्णीतम् अस्तीति असौ अवदत्। सर्वकारेण चीन भारत देशाभ्याम् चिकित्सकीयोपचार सामग्रीणाम् आनयनस्य विषये प्रयत्यमानमस्तीति मन्त्री डा खतिवडा अज्ञापयत। अत्यावश्यक कार्यम् विहाय बहिः न निष्क्रान्तुम् अत्यावश्यकम् विहाय यानम् न चालयितुम् च सर्वकारेण विहितम् आह्वानम् अशेष नेपालीभिः परिपाल्य अपेक्षायाम् सहयोगो विहितः इत्युदीर्य सर्वकारेण धन्यवादः व्यक्तो वर्तते। एवमेव सर्वकारेण संघटिते कोरोना विषाणु निरोधन नियन्त्रण सम्बद्धे केन्द्रीय कोषे वित्तम् संकलयितुम् उपवेशेन सर्वे आहूताः सन्ति। उद्योग वाणिज्यापूर्ति मन्त्रालयेन दैनिकोपभोग्य खाद्य वस्तूनाम् शिलातैलीय पदार्थानाम् च अभावो नास्ति आपूर्तिश्च नियमित रूपेण विधीयमानास्तीति ज्ञापितम् वर्तते। मन्त्रालयेन दैनिकोपभोग्य खाद्य वस्तूनाम् पाचनेन्धनानाम् शिलातैलीय पदार्थानाम् च याचनायाः भण्डारणस्य च विषये ज्ञापयता एतेषाम् पदार्थानाम् अभावः स्याद् इत्युक्त्वा त्रासानुभवनम् त्यक्त्वा धैर्येण सामग्री संकलयितुम् च अनुरुद्धम् वर्तते। मन्त्रालयेन पाचनेन्धनानाम् आयातः नियमितरूपेण विधीयमानोऽस्तीति उद्योग वाणिज्यापूर्ति मन्त्रालयस्य सहप्रवक्ता उर्मिला केसी अज्ञापयत। अत्रान्तरे सर्वकारेण अत्यावश्यक वस्तूनाम् अभावम् निरस्तुम् तादृशानाम् वस्तूनाम् उत्पादकान् उद्योगान् पूर्णक्षमतायाम् सञ्चालयितुम् च आहूतम् वर्तते। उद्योग वाणिज्यापूर्ति मन्त्रालयेन गतदिने सूचनाम् प्रकाश्य सर्वकारेण पिधानम् उद्घोषितम् सदपि औषधानाम् स्वास्थ्योपकरण सामग्रीणाम् खाद्य वस्तूनाम् पेयजलस्य दुग्धस्य इन्धनोत्पादकानाम् च सर्वकारीयान् नैजान् च उद्योगान् पूर्णक्षमतायाम् सञ्चालयितुम् आहूतमस्ति। स्वास्थ्य जनसंख्या मन्त्री भानुभक्त ढकालः कथयति कोविड 19 रोगस्य निरोधनाय नियन्त्रणाय च नेपाले विद्यमानानां सामग्रीणां संकलनं विहितम् अस्ति। गतदिने संचारकर्मिभिः सह भाषमाणः मन्त्री ढकालः कोविड 19 रोगस्य उपचारस्य समये प्रयुज्यमानानां वस्त्राणाम् उत्पादनं प्रतिदिनं शतत्रयेण विधीयमानम् अस्तीति ज्ञापयन् अवोचत् पिधापनस्य कारणेन उपत्यकातः बहिरपि कोविड 19 निदर्शन परीक्षणस्य कार्यम् विधीयमानमस्ति। स्वास्थ्यमन्त्रिणः अनुसारेण बीपी स्वास्थ्य विज्ञान प्रतिष्ठान प्रवृत्तिषु चिकित्सालयेषु तत्कालाय सामग्रीः प्रापयित्वा प्रयोगशालाः सक्रियाः कारयित्वा निदर्शन परीक्षणस्य व्यवस्था विहितास्ति। मन्त्री ढकालः इतर राष्ट्रात् औषधानि उपकरणानि च आनेतुम् सर्वकारीयात् कूटनीतिकात् बाह्याच्च क्षेत्रात् प्रयासाः विधीयमानाः सन्तीति भाषमाणः चीन भारत देशौ प्राथमिकतायाम् संस्थाप्य सामग्र्यः आनीयन्ते इति अज्ञापयत। प्रमुख प्रतिपक्षिणा नेपाली कांग्रेस दलेन कोरोना विषाणुनाम् संकटस्य प्रतिकाराय सर्वकारेण उद्घोषितस्य पिधापनस्य निर्णयम् आत्मसात्कृत्या पालयितुम् सर्वे अनुरुद्धाः सन्ति। कांग्रेस दलस्य प्रवक्ता विश्वप्रकाश शर्मणा ह्यो विज्ञप्तेर्माध्यमेन विधानस्य अवधौ उत्पन्नाः उत्पत्स्यमानाश्च सर्वाः जटिलताः सहजाः विधातुम् सर्वकारेण सम्बद्ध संयन्त्रस्य व्यवस्थितम् प्रभावकारि च परिचालनम् विधातव्यमिति आवश्यकता प्रदर्शिता वर्तते। असौ पिधानस्य स्थितौ आदिवसम् कार्यम् कृत्वा जीवनम् यापयतो निम्नवर्गस्य व्यक्तीनाम् कृते यथाशीघ्रम् विशेष सहायतायाः समग्र कार्यक्रमम् निर्माय क्रियान्वेतुम् सर्वकारस्य ध्यानम् आकर्षयत। बागमती प्रदेश सर्वकारेण कोरोना विषाणुनाम् उपचार नियन्त्रणयोः कृते आपत्कालिकोपचार कोष संस्थापितो वर्तते। प्रदेशस्य मुख्यमन्त्रिणः डोर्वणी पौडेलस्य अध्यक्षतायां ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन दशकोटिनां रूप्यकाणां आपत्कालिक कोषः स्थापितो स्थिति सर्वकारस्य प्रवक्ता आर्थिक विषय योजना मन्त्री कैलाश ढुंगेलः अज्ञापयत्। एतस्मिन् कोषे मुख्यमन्त्रिणा पौडेलेन सह अन्यैः मन्त्रिभिः राजनीतिक नियुक्तिं प्राप्तवन्तीभिः व्यक्तिभिश्च एकमासस्य वेतनस्य सहयोगो विहितो स्थिति असौ अज्ञापयत्। राष्ट्रिय प्रजातन्त्र दलेन कोविड 19 विशेष कोषे 95 लाख रूप्यकाणां सहयोग प्रदास्यते। कोरोना जीवाणुनां प्रकोपस्य प्रतिकाराय सर्वकारेण संघटिते एतस्मिन् कोषे दलेन सहयोगं प्रदातुं निर्णीतमिति नेता सुन्दर पाण्डे अज्ञापयत्। प्रमुख प्रतिपक्षिणो नेपाली कांग्रेस दलस्य संघीय सांसदैः नेपाल सर्वकारेण संचालिते कोरोना विषाणुनां संक्रमण निरोधन नियन्त्रणोपचार कोषे 15 दिनानां पारिश्रमिकं संकलयिष्यते। सर्वकारेण संचालिते अस्मिन् कोषे कांग्रेस दलस्य सांसदैः पारिश्रमिकं प्रदातुं निर्णीतम् अस्तीति दलस्य प्रमुख सचेतकः बालकृष्ण खाण अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन कोरोना विषाणुनां संक्रमणेन सम्बद्धाः सूचनाः एकद्वार प्रणाली माध्यमेन संचार माध्यमेषु प्रवाहयितुं संचार केन्द्रं संस्थापितं वर्तते। सर्वेषु संचार माध्यमेषु एकद्वार प्रणाल्या सूचनां प्रवाहयितुं मन्त्रालये एव संचार केन्द्रं स्थापितं वर्तते इति स्वास्थ्य जनसंख्या मन्त्रिणः भानुभक्त ढकालस्य परामर्शदाता डाक्टर खेम कार्की अज्ञापयत्। विश्वव्यापी महामार्याः रूपेण व्यापृतानां कोविड 19 विषाणुनां नियन्त्रणाय नेपाल सर्वकारेण प्रदत्तस्य आदेशस्य अपालकाः 68 जनाः विभिन्न स्थानेभ्यः ह्यः प्रहरेण नियन्त्रिताः सन्ति इति समाचारः।